एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः संयुक्तोपवेशे आगामिनः आर्थिक वर्षस्य कृते सर्वकारस्य नीति कार्यक्रमाः प्रस्तुताः सन्ति। नयाँ बानेश्वरवर्तिनी संघीय संसद भवने ह्य उपविष्टे संयुक्तोपवेशे सर्वकारस्य नीति कार्यक्रमान् प्रस्तुवन् राष्ट्रपतिः पौडेलः उत्पादनस्य वर्धनत्वेन वृत्त्युपार्जनानां सर्जनत्वेन च कृषेः ऊर्जसश्च क्षेत्रयोः विकासाय बलं प्रदास्यते इति प्रावोचत्। एवमेव नीति कार्यक्रमेषु स्वास्थ्य क्षेत्रे नागरिकाणां सहज प्राप्तेः वर्धनं, भूशुल्क भूमापनादि सेवानां स्थानीय स्तरेभ्यैव अनलाइन माध्यमेन प्रदानं, भ्रष्टाचारस्य नियन्त्रणं प्रभावकारी विधाय सुशासनस्य स्थापनं चेति कार्येभ्य बलं प्रदत्तं वर्तते। राष्ट्रपतिः पौडेलः सार्वजनिक ऋणस्य उपयोग संचित धनस्य वर्धनाय उत्पादन मूलक क्षेत्रेषु चैव करिष्यते, कर प्रणालीं व्यवस्थितां सुदृढां च विधाय करस्य परिधेः वर्धनस्य कार्यं नीति कार्यक्रमेषु समाविष्टं वर्तते इति उदैरयत्। एवमेव आगामिनि आर्थिक वर्षे विद्युत क्षमता सहस्र चतुष्टयं पञ्चशतञ्चेति मेगावट मिता प्रापयिष्यते। औद्योगिक क्षेत्रस्य समग्र वातावरणस्य सुधाराय औद्योगिक क्षेत्रस्य विधेः व्यवस्था समयानुकूला विधास्यते। औद्योगिक क्षेत्रं विशेषार्थिक क्षेत्रम् उद्घोष्य अस्य सञ्चालनार्थं नैज क्षेत्राय प्रोत्साहन प्रदानस्य नीतिः सर्वकारस्य आगामिनि वर्षे वर्तते। सर्वकारेण आगामिनि आर्थिक वर्षे अतिरिक्तायां 15,000 हेक्टर परिमितायां कृषियोग्य भूमौ सेचन सौविध्यस्य विस्ताराय घोषणा विहिता वर्तते। राष्ट्रिय गौरवस्य सिक्टा, बबई, रानी, जमरा, कुलरिया, माकाली, तृतीय भेरी, बबई पथान्तरण, सुनकोशी, मरिन पथान्तरण, बहुद्देशीया योजनानां निर्माण कार्याय तीव्रता प्रदानस्य लक्ष्यं सर्वकारेण गृहीतमस्ति। एवमेव सर्वकारेण आगामिनि दशकं सूचना प्रविधे दशकत्वेन समायोज्य 5,000 जनेभ्य वृत्त्युपार्जनस्य प्रदानाय घोषणा विहितास्ति। सर्वकारस्य नीति कार्यक्रमेषु पोखरा भैरवा अन्तर्राष्ट्रिय विमानस्थलयोः सञ्चालनाय प्रोत्साहनस्य कार्यक्रम मानिष्यते। महिलाः आर्थिकरूपेण क्षमाः, सबलाः, सशक्ताश्च विधातुं प्रधानमन्त्री पुत्री आत्मनिर्भर कार्यक्रमस्य सञ्चालनं करिष्यते इति च उल्लिखिते स्तः। उपवेशस्य प्रारम्भे राष्ट्रपतेः पौडेलस्य समक्षं प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन सर्वकारस्य आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः प्रस्तुताः आसन्। आयव्ययकस्य प्रस्तुतेः पूर्वं संघीय संसदः संयुक्तोपवेशे राष्ट्रपतिना सर्वकारस्य नीति कार्यक्रमाणां प्रस्तुतेः प्रावधानं संविधाने वर्तते। एवमेव नीति कार्यक्रमान् आधृत्य सांविधानिक व्यवस्थायानुसारेण प्रतिवर्षं ज्येष्ठ मासस्य 15 दिवसे सर्वकारेण आयव्ययकं प्रस्तुतव्यं भवति। सम्बोधनाय राष्ट्रपतेः पौडेलस्य नयाँ बानेश्वरवर्तिनी संसद भवन परिसरे प्राप्ते अवसरे प्रतिनिधि सभायाः सभामुखेन देवराज घिमिरे विदेन राष्ट्रिय सभायाः अध्यक्षेण नारायण प्रसाद दाहालेन च स्वागतं विहितम् आसीत्। तदवसरे नेपाली सेनायाः समूहेन राष्ट्रपतेः सम्माने सम्मानाभिवादनं च अर्पितम् आसीत्। तत्पूर्वं सर्वकारेण आगामिनः आर्थिक वर्षस्य नीति कार्यक्रमाः पारितीकृताः आसन्। मन्त्रिपरिषदा ह्य उपविष्टेन उपवेशेन राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदा संयुक्तोपवेशे प्रस्तुताः नीति कार्यक्रमाः पारितीकृताः आसन् इति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च रेखा शर्मा अज्ञापयत्। एवमेव मन्त्रिपरिषदा ह्यस्तनोपवेशेन 16 पञ्चवर्षीय योजनां पारितीकर्तुं निर्णीतम् अस्ति इति च मन्त्री शर्मा असूचयत्। तत्पूर्वं प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन प्रमुख प्रतिपक्षी नेपाली कांग्रेस दलं सदने निर्वाध रूपेण सर्वकारस्य नीति कार्यक्रमाणां प्रस्तुत्यर्थं सहज वातावरणस्य निर्माणाय अनुरोधम् आसीत्। प्रधानमन्त्रिणा अनुरोधस्य पश्चात् प्रमुख प्रतिपक्षिणा नेपाली कांग्रेस दलेन संघीय संसद सदनद्वयस्य संयुक्तोपवेशे सर्वकारस्य नीति कार्यक्रमाणां प्रस्तुते समये सहयोगं विधातुं निर्णीतम् आसीत्। नेपाली कांग्रेस संसद दलस्य ह्यस्तनोपवेशेन राष्ट्रपतये रामचन्द्र पौडेलाय नीति कार्यक्रमाणां प्रस्तुतौ सहयोगाय निर्णीतमिति दलस्य प्रमुख सचेतक पदीयो रमेश लेखकः अज्ञापयत्। नेपाली कांग्रेस दलेन नेपालस्य संविधानस्य गणतन्त्रात्मक पद्धतिम् राष्ट्रपतेः विशेष महत्वम् च विचार्य संघीय संसदा ह्यस्तने संयुक्तोपवेशे भागग्रहणाय निर्णीतम् परम् सर्वकारेण संसदीय आनीतायाम् कार्यसूच्याम् प्रवेशम् न कर्तुम् निर्णीतमिति प्रमुख सचेतक पदीयो लेखकः अज्ञापयत्। प्रमुख प्रतिपक्षिण नेपाली कांग्रेस दलस्य सांसदानां विरोधस्य पश्चात् संघीय संसद सदनद्वयस्य उपवेशौ कार्यसूच्यां प्रवेशेन विना स्थगितौ स्तः। उपप्रधान गृहमन्त्रिण रवि लामी छाने विधस्य सहकारी प्रकरणे संलग्नताया विषये संसदीयानुसन्धान समितेः संघटनस्य याचनया नेपाली कांग्रेस दलेन सदनद्वयस्य उपवेशयोः अवरोधः सर्जनमनु उपवेशौ स्थगितौ स्तः। प्रतिनिधि सभायाः अपरोपवेशः स्वज्येष्ठस्य तृतीये दिवसे बृहस्पतिवासरे पूर्वाह्नस्य एकादशने दशवादने वस्ता अथ च राष्ट्रिय सभायाः उपवेशः स्व बृहस्पतिवासरे दिवा सपादैकवादने वस्ता। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन गणतन्त्र दिवसम् मौलिक रूपेण रचनात्मक रूपेण च समायोजयितुम् निर्दिष्टम् वर्तते। प्रधानमन्त्रिणा प्रचण्डेन अस्यैव मासस्य चतुर्दशे पञ्चदशे षोडशे च दिवसेषु दिनत्रयावधौ मौलिकान् रचनात्मकान् च कार्यक्रमान् आयोज्य गणतन्त्र दिवसम् समायोजयितुम् निर्दिष्टम् वर्तते। प्रधानमन्त्रिणः प्रचण्डस्य अध्यक्षतायाम् ह्य सिंहप्रासादे उपविष्टेन उपवेशेन एतत् विक्रम वर्षीया गणतन्त्र दिवस मूल समारोह समितिः संघटिता च वर्तते। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल गदति देशस्य विकासाय जनताया समृद्धये च मार्क्सवादी चिन्तनेन सहितं वामपन्थी दर्शनम् अवलम्बनीयम्। एकीकृत समाजवादी दलस्य ह्य प्रारब्धम् केन्द्रीय समितेः उपवेशम् उद्घाटयन् अध्यक्षो नेपाल देशे राजनैतिक परिवर्तनाय वामान्दोलनस्य भूमिका महत्वपूर्णास्तीति अभाषत। अद्ययावत् सञ्चाल्यमानेन उपवेशेन दलस्य आसन्न महाधिवेशनस्य कृते वैचारिक दृष्टिकोण दलस्य समाजवादी कार्यक्रमः सांगठनिकं प्रतिवेदनं विधान प्रतिवेदनं च अनुमोदिष्यन्ते। पाटनवर्तिनी उच्च न्यायालये क्रिकेट क्रीडा क्रीडकस्य सन्दीप लामिछाने विधस्य विरूद्धे पञ्जीकारिताय बलात्कार सम्बद्धस्य पञ्जीकारितस्य बलात्कार सम्बद्धस्य न्यायिक प्रकरणस्य श्रवणम् अद्य भवति। न्यायाधीशद्वयस्य सुदर्शनदेव भट्टस्य अञ्जु प्रेतित्यस्याश्च न्यायपीठे यः विमर्शनम् सम्भूतम् श्रवणस्य असमाप्य अवस्थाय सहजनस्य पश्चात् अद्य बुधवासरे श्रवणम् विधीयमानम् वर्तते।